ॐ नमो भगवते वासुदेवाय। अथैकत्रिंशोऽध्यायः। गोप्य ऊचुः। जयति तेऽधिकम् जन्मना व्रजः, श्रयत इन्दिरा शश्वदत्र हि, दयितदृश्यताम् दिक्षु तावकास्, त्वयि धृता सवस्त्वाम् विचिन्वते। शरदुदाशये साधु जात सत् सरसिजोदर श्रीमुषादृशा, सुरतनाथ ते शुल्कदासिका, वरद निघ्नतो नेह किं वधः। विषजलाप्ययात् व्यालराक्षसात्, वर्षमारुताद् वैद्युतानलात्, वृषमयात्मजात् विश्वतो भयात्, ऋषभते वयम् रक्षिता मुहुः। न खलु गोपिकानन्दनो भवा, नखिल देहिनामन्तरात्मदृक्, विखन सार्थितो विश्वगुप्तये, सख उदैवान् सात्वताङ्कुले, विरचिता भयम् वृष्णिधुर्यते, चरणमीयुषाम् संसृतेर्भयात्, करसरोरुहम् कान्तकामदम् शिरसि धेहिनः श्रीकरग्रहम्। व्रजजनार्तिहन् वीरयोषिताम् निजजनस्मयध्वंसनस्मित, भज सखे भवत् किङ्करी स्मनो, जलरुहाननम् चारुदर्शय। प्रणतदेहिनाम् पापकर्षनम् तृणचरानुगम् श्रीनिकेतनम्, फणिफणार्पितम् ते पदाम्बुजम्, कृणुकुचेषु नः कृन्धिरिच्छयम्। मधुरया गिरा वल्गुवाक्यया, बुधमनोज्ञया पुष्करे क्षण, विधिकरीरिमा वीरमुह्यति, रथरसीधुनाप्याययस्वनः। तव कथामृतम् तप्त जीवनम्, कविभिरीडितम् कल्मषापहम्। श्रवणमङ्गलम् श्रीमदाततम् भुवि गृणन्ति ते भूरिदा जनाः, प्रहसितम् प्रिया प्रेमवीक्षणम् विहरणम् च ते ध्यानमङ्गलम्। रहसि संविदो या हृदि स्पृशः, कुहकनो मनः क्षोभयन्ति हि। चलसि यद्व्रजाच्चारयन् पशून्, नलिन सुन्दरम् नाथ ते पदम्। शिलतृणाङ्कुरैः सीदतीतिनः, कलिलताम् मनः कान्त गच्छति। दिनपरिक्षये नीलकुन्तलैर्वनरुहाननम् बिभ्रदावृतम्, घनरजस्वलम् दर्शयन् मुहुर् मनसिनः स्मरम् वेरयच्छसि प्रणतकामदम् पद्मजार्चितम् धरणिमण्डनम् ध्येयमापदि चरणपङ्कजम् शन्तमम् च ते रमणनःस्तनेष्वर्पयाधिहन् सुरतवर्धनम् शोकनाशनम् स्वरितवेणुना सुष्ठुचुम्बितम् इतररागवे स्मारणम् नृणा वितरवीरनस्ते धरामृतम् अटति यद्भवा नह्निकाननम् त्रुटिर्युगायते त्वामपश्यताम् कुटिलकुन्तलम् श्रीमुखम् च ते जड उदीक्षताम् पक्ष्मकृदृशाम् पतिसुतान्वया भ्रातृबान्धवा नति विलङ्घ्यते त्यच्युता गताः गतिविदस्तवोद्गीतमोहिता कितव योषितः कस्त्यजेन्निषि रहसि संविदम् हृच्छयोदयम् प्रहसिताननम् प्रेमवीक्षणम् बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मनः व्रजवनौकसाम् व्यक्तिरङ्गते वृजिनहन्त्र्यलम् विश्वमङ्गलम् त्यजमनाक्चनः त्वत्स्पृहात्मनाम् स्वजनहृद्रुजाम् यन्निषूदनम् यत्ते सुजातचरणाम्बुरुहम् स्तनेषु भीताः शनैः प्रियदधीमहि कर्कशेषु तेनाटवीमटसि तद् व्यथते न किंस्वेत् कूर्पादिभिर्भ्रमतिधीर्भवदायुषाम् नः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे रासक्रीडायाम् गोपीगीतम् नामैकत्रिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।